वावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ गुरुभ्यो नमः
धन्यवादः भगिनि सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति विशेषणं विशेष्यम् इति तयोः मध्ये भावः अस्मिन् विषये वयं तत्र एकां कथां पठन्तः स्मः तत्र जहि शत्रुं महाबाहो इति तत्र शिवराजः अस्ति अपि तत्र अफ्जल् खानः अपि अस्ति तयोः मध्ये मेलनम् इदानीं निश्चितम् अस्ति किन्तु तत्र मेलने किं भवति इति वयम् एतावत् न जानीमः इदानीं तत्र मेलने किं भवति इति पश्यामः अतः तत्र केवलम् एकः परिच्छेदः पूर्वं गत्वा ततः आरभ्य पठामः अस्तु तत्र सूर्यकुमारी भगिनी भवती पठति वा तत्र
पश्यामः
मीनाक्षी भगिनी तत्र न श्रूयते भगिनि अस्तु अस्तु नरेश महोदय भवान् तत्र सूर्यकुमारी भगिनी वदतु
अहं पठामि वा
हा सूर्यकुमारी भगिनी अस्तु पठतु भगिनी अस्तु तत्र तत्र राजनीतिज्ञः इति ततः आरभ्य
ओ राजनीतिज्ञः शिवराजः अपि वयोवृद्धं ज्ञानवृद्धं गोपीनाथवर्यं राजदूतरूपेण खानं प्रति प्रेषितवान् सः गत्वा निवेदितवान् खानवर्य भवान् अस्मदीयं महाराजं सन्ध्यर्थम् आहूतवान् इति परमादयालुता भवतः पराक्रमः अग्नितुल्यः तेनैव अखिलस्य भूमण्डलस्य शोभा वर्धिता अस्ति किन्तु अत्र आगन्तुं तस्य महत् भयं वर्तते अतः भवान् एव जावलीप्रदेशं समागत्य महाराजाय अभयं दातुम् अर्हति दूतस्य तथा विधं कातरं वचनं श्रुत्वा खानः जावलीप्रदेशे मेलनम् अङ्गीकृतवान् ससैन्यं प्रस्थितः सः प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान् शिवखानयोः मेलनस्थानं शिबिरात् दूरे उत्तुङ्गस्य दुर्गस्य अधः एकस्मिन् पटागृहे
निश्चितं समीचीनं भगिनि अस्तु धन्यवादः अस्तु तत्र किञ्चित् एव पङ्क्तिशः मास्तु किन्तु किञ्चित् विवरणं भवेत् चेत् सर्वेषां पुनःस्मरणं भवति इति कृत्वा तत्र लक्ष्मी भगिनी किञ्चित् वदति वा तत्र अस्मिन् परिच्छेदे वयं किं पठितवन्तः इति
आं महोदय अहं प्रयत्नं करोमि शिवराजस्य
सर्वम् इति तत्र तत्र भगिनी एतत् करोतु तत्र केवलं तत्र राजनीतिज्ञः शिवराजः इति आरभ्य तेनैव तत्र तत्र महत् भयं वर्तते इति तत्र तावत् पर्यन्तं किम् अस्ति इति किञ्चित् वदतु. स प्रत्येकपदं मास्तु, किञ्चित् तत्र किं भवति, तत्र शिवराजः किं
शिवराजः राजदूते
सः अपि राजदूतं प्रेषितवान्.
राजदूतं प्रेषितवान्,
तस्य नाम
अफचलम् अफचलघानं प्रति प्रेषितवान्.
तस्य नाम
सः वयोवृद्धः ज्ञानवृद्धः च आसीत्. तस्य नाम गोपीनाथवर्यः.
तस्य नाम गोपीनाथवर्यः.
तस्य नाम गोपीनाथवर्यः.
सः तत्र गत्वा
सः तत्र
कानस्य समीपे गत्वा सः किम् उक्तवान्?
सः उक्तवान् जावलिप्रदेशं घोरं वनम् अस्ति, अत्र आगन्तुं तस्य शिवराजस्य भीतिः अस्ति, अतः भवानेव
न तत्र कस्य कारणं किम् अस्ति, भयस्य कारणं किम् अस्ति? केवलं तत्र जावळीवनं तत्र निबिडं वनम् इति कृत्वा तत्र शिवराज्यस्य भयम् अस्ति वा? तादृशः नास्ति खलु,
शत्रु
सन्धि कृत्वा.
एकनिमिषे सूर्यकुमारी.
सन्धि
न तत्र तत्र किम् अस्ति, तत्र ज्ञानवर्यः भवान् महाराजं सन्ध्यर्थम् आहूतवान् इति परमा दयालुता इत्युक्ते सः कान् स्मरति वा खलु भगिनी एतां कथाम्? अस्तु, तत्र किं भवति, तत्र कानः किं कृतवान्? सः दूतेन
सः अपि दूतं प्रेषितवान्.
किं तस्य इच्छां तस्य इच्छां प्रकटितवान्, सन्धिं कुर्मः इति तस्य इच्छां
सः दूतं प्रेषितवान्.
दूतं प्रेषितवान्. अतः एषः दूतः शिवराजस्य दूतः तत्र गत्वा किं वदति? शिवराजस्य
भवान् एव भूमण्डलस्य भवान् पराक्रमी अस्ति, तस्य प्रशंसा कृतवान्.
तस्य प्रशंसां
अफचलगानस्य
प्रशंसां
कृतवान्
कृत्वा सः किम् उक्तवान्? अतः
भवान् एव जावलीप्रदेशं
किन्तु अत्र आगन्तुं भवान् एतादृशपुरुष महापुरुषः अस्ति, तत्र सर्वे भयम् अनुभवन्ति खलु, तं द्रष्टुं भयम् अनुभवन्ति, अतः मम महाराजः अपि भयम् अनुभवति, अत्र न आगन्तुम् इच्छति. तस्य धैर्यं नास्ति.
अतः भवानेव जावलीप्रदेशम् आगत्य
सन्धिकार्यं तत्र आरम्भं कुर्मः. तत्र आगत्य भवान् किं करणीयं, तत्र अभयं ददातु. अभयम् इत्युक्ते भयं मास्तु इति खलु, भीतिः मास्तु, अभयं ददातु. कस्मै अभयं ददातु? कस्मै?
शिवराजं
शिवराजाय. कस्मै शिवराजाय
अभयं
ददातु इति दातुम् अर्हति, दातुम् इत्युक्ते तत्र भवान् एव करोति चेत् समीचीनं भवति इति. धन्यवादः भगिनी, समीचीनं. इदानीं तत्र दूतस्य तथाविधम् इति तत्र आरभ्य तत्र गीताञ्जलि धन्यवादः भगिनी, समीचीनम् अस्ति, समीचीनमस्ति. अस्तु, गीताञ्जलि भगिनी कथां स्मरति खलु भगिनी?
किञ्चित् महोदय. आं महोदय.
तत्र इदानीं तत्र केवलं तत्र भवान् एव आगत्य महाराजाय अभयं दातुम् अर्हति इति अस्ति. तदनन्तरं दूतस्य तथाविधं कातरं वचनं श्रुत्वा इति तत्र तथा आरभ्य निश्चितम् इति तावत्पर्यन्तम् एकवारं पठित्वा वदतु भगिनि, सम्पूर्णतया वक्तव्यम् इति नास्ति, केवलं सारांशः.
आम् महोदय. दूतस्य तथा विधं कातरं वचनं श्रुत्वा खानः जावलीप्रदेशे मेलनम् अङ्गीकृतवान्. ससैन्यं प्रस्थितः सः प्रतापदुर्गात् किञ्चित् दूरे शिबिरं स्थापितवान्. शिवखानयोः मेलस्थानं शिबिरात् दूरे अतुङ्गस्य दुर्गस्य
उत्तुङ्गस्य
दुर्गस्य अधः एकस्मिन् पटगृहे निश्चितम्. यथा गोपीनाथवर्यम् उक्तवान् अफजलखानस्य दूतः तथा अफजलखानः एव कर्तुं
अङ्गीकृतवान्. हा अस्तु, एतदेव कुर्मः इति सः अपि अङ्गीकृतवान्.
हा एतदेव अहं वयं कुर्मः.
भवतः सूचना भवतः सूचना समीचीना अस्ति, अतः तां सूचनामेव अनुसरामः.
अपि जावलीप्रदेशे मेलनं समीचीनम्
इति.
तदनन्तरं तस्य निकटः यत् स्थानं निर्दिश्य तत् स्थानस्य निकटः एकं शिबिरं स्थापितवान्. शिवखानयोः द्वयोः मेलस्थानं निकटं शिबिरं स्थापयित्वा क्षम्यता महोदय, स्थापयित्वा उत्तुङ्गस्य तु अहं विस्मरामि
महोदय. उन्नतः इति तत्र उन्नतशिखर तत्र शिखरे इति चिन्तयतु. तत्र पर्वतः अस्ति, पर्वतस्य उपरि एषः दुर्गः अस्ति, अतः उत्तुङ्गः. तत्र अधोभागे नास्ति, तत्र पर्वतस्य अधोभागः अस्ति, अपि उपरितनभागः अस्ति खलु. अत्र एषः दुर्गः कुत्र अस्ति चेत् तत्र अधोभागे नास्ति, उत्तरभागे अस्ति.
अस्तु, तत्र उत्तरभागे इत्युक्ते उपरि पर्वतस्य उपरि भागे
तत्र एकः दुर्गः अस्ति.
एकः कुटीरः
न दुर्गः अस्ति, दुर्गस्य अधः कुटीरः
अस्ति. दुर्गस्य अस्ति, तस्य अधः एकः कुटीरः अस्ति.
सः कुटीरः एव मेलनस्थानं भवतु इति
भवेत्
इति इति निश्चितं. समीचीनं भगिनि, हा इति निश्चितम्. अतः तत्र मेलनस्थानं निश्चितम्. इदानीं वयं कस्य प्रतीक्षां कुर्वन् स्मः इत्युक्ते तत्र मेलने किं भवति इति. तत्र सप्ताहद्वये अफजलखान अपि शिवराजस्य तयोः मेलने किम् अभवत्
इति चिन्तयन्नस्ति.
इति इदानीम् अग्रे एतत् ज्ञास्यामः तत्र किम् अभवत् इति. अस्तु, मम मीनाक्षी भगिनी
महोदय एकः प्रश्नः महोदय तत्र इत्युक्ते एकः पर्वतः अस्ति तत्र पर्वतस्य उपरि तत् भाग अस्ति, तदेव मेलस्थानम् भवेत्
इति न भगिनि. तत्र केवलं विवरणं तत्र वाक्यशैली तादृश अस्ति. तत्र पर्वते एकस्मिन् कुटीरे इति अपि ते वक्तुं शक्नुवन्तः, किन्तु तत्र उत्तुङ्गस्य दुर्गस्य इति अपि तत्र विशेषणविशेषभावः अस्ति इति कृत्वा तत्र कुटीरः कुत्र अस्ति इत्युक्ते पर्वते अस्ति, किन्तु तत्र केवलं पर्वतः नास्ति किन्तु पर्वते दुर्गः अपि अस्ति. तस्य दुर्गस्य अधोभागे एषः कुटीरः अस्ति अथवा एतत् पटगृहम् अस्ति इति.
इत्युक्ते अफजल् खानः दुर्गस्य भागः दृष्ट्वा
तत्र दुर्गस्य कोऽपि महत्वं नास्ति भगिनि, दुर्गस्य कोऽपि किमपि महत्वं नास्ति, केवलं तत्र वाक्ये स्थापितवन्तः तावदेव. केवलं तत्र
मन्ये महोदय भीति करोतु इति दुर्गस्य लक्षणम् अस्ति तत्र इति. अफजल् खानस्य मनसि भीति भवेत् इति कारणात् तत्र दत्तं, किन्तु
अफजल् खानस्य मनसि भीतिः नास्ति, शिवराजस्य मनसि अपि भीतिः नास्ति, किन्तु तत्र केवलं तत्र नाटकं भवति, तत्र भीतिः अस्ति इति. किन्तु तत्र अतः तत्र तत्र केवलं मेलनस्थानं निश्चितं तत् पटगृहे अस्ति. तत् किं तत्र अफजल् खानस्य शिबिरे मेलनं तद् न कर्तुं शक्नुवन्ति खलु. तत्र शिवराजः तत्र अफजल् खानस्य शिबिरम् आगन्तुं तस्य धैर्यः नास्ति इति उक्तवान् खलु. अपि अफजल् खानः प्रायशः तत्र शिवराजस्य शिबिरं तं प्रति अपि सः गन्तुं प्रायशः तस्य इच्छा नास्ति इति मन्ये, अथवा तत्र शिवराजस्य शिबिरं कुत्र अस्ति इति तत्र प्रायशः शिवराजः न द्रष्टुम् इच्छति खलु, न प्रदर्शितुम् इच्छति. तत्र मम शिबिरं तत्र कोऽपि न जानाति मम शिबिरं कुत्र अस्ति, तादृश एव भवतु, तत्र रहस्यमेव भवतु इति शिवराजः प्रायशः अपि चिन्तयितुं शक्नोति खलु. अतः तत्र शिवराजस्य शिबिरमपि मास्तु, अफजल् खानस्य शिबिरमपि मास्तु, अतः अन्यत् स्थलम् आवश्यकम् अस्ति. अतः तत्र अन्यस्थलं किम् इत्युक्ते तत्र शिबिरात् किञ्चित् दूरे तत्र पटगृहम् एकम् अस्ति, तदेव तत् पटगृहमेव मेलनस्थानं भवेत् इति निश्चितम्.
आं महोदय, अपि उन् योगः तुङ्ग द्वयोः षष्टिविभक्ति तत्र.
तदनन्तरं तत्र प्रायशः उन्नतः इति अर्थे भगिनि तत्र
उत्तुङ्गस्य अवगतं, किन्तु उत्त इत्युक्ते उन्न योगः तुङ्ग.
सत्यं भगिनि, सत्यं. उन् योगः तुङ्गः इदानीं तस्य षष्टि, तस्य षष्टि. समीचीनं भगिनि.
उन् इति उपसर्ग महोदय
इति मन्ये भगिनि.
नकार भवति, तदनन्तरं पुनः सन्धि भूत्वा नकार तथा तकार भवति वा
तत्र? उत्योगः तुङ्गः
कुत्र अस्ति? उत्तुङ्गः खलु, उत्योगः तुङ्गः अस्ति.
उत्तुङ्गः तुङ्गः
तुङ्ग इति शिखरमस्ति.
ओ, उत् योगः तुङ्ग अस्ति वा, उन् न?
आमाम्, उन् नास्ति, उत् इति उपसर्ग अस्ति, उपरि इति उत् उत्थानम् उत्थातव्यं.
अस्तु अस्तु महोदय, अवगतं, धन्यवादः महोदय.
धन्यवादः महोदय. अस्तु, समीचीनम्. अस्तु, इदानीम् अग्रे एतावत् गतवर्गे अपि पठितवन्तः, इदानीम् अग्रे सरामः. तत्र तु पूर्वं न पठितम्, अतः तत्र पङ्क्तिशः परिशीलनमपि आवश्यकम् अस्ति. अस्तु, तर्हि तत्र अग्रे गच्छामः. तर्हि तत्र नरेश महोदय अग्रे पठति वा?
आं महोदय. रात्रिः अतीता, सूर्योदयः जातः, भवानीभक्तः शिवराजः लौहमयं दृढं कवचं तीक्ष्णानि व्याघ्रणखानि रक्तं शिरस्त्राणं तीक्ष्णं कृपाणं च धृत्वा अफजलेन मेलितुं प्रस्थितः। आगतं शिवराजं दृष्ट्वा अफजलः प्रसन्नः अभवत्। सः स्वस्थानात् सहसा उत्थितः। एषः शिवराजः अबुधः अस्ति इति चिन्तयन् सः तं विविधानि मधुराणि वचनानि उक्तवान्।
तावत्पर्यन्तं भवतु महोदय। अस्तु, हा इदानीं तत्र तत्र रात्रिः अतीता इति तत्र प्रथमवाक्यत्रयं किञ्चित् विवृणोतु महोदय। हा रात्रिः अतीता,
रात्रिः समाप्तम् आसीत्,
अतीता तत् गतं, हा तत् रात्रिः इदानीं नास्ति, रात्रिः आसीत् इदानीं रात्रिः नास्ति, रात्रिः सा या रात्रिः आसीत् सा इदानीम् अतीता, अतीता समाप्ता। तत्र रात्रिः इति स्त्रीलिङ्गे अस्ति, तत्र विशेष्यम् अस्ति, अतीता विशेषणम् अस्ति, विशेषणम् अस्ति।
सूर्योदयः जातः, सूर्य उदय अभवत्,
सूर्यस्य उदयः अपि अभवत्, सूर्योदयः जातः, सूर्योदयः जातः। तत्रापि कः भावः? विशेषण विशेषभावः।
तदा शिवराजस्य विशेषणं भवानी भक्तः, शिवराजः तु भवानी भक्तः अस्ति। सः किञ्चित् रक्षणार्थं धारयति अस्ति लोहमयं।
सः किं किं धरति? सः किं किं धरति? सः
लोहमयं दृढं कवचं।
हा, कीदृशं कवचं? तत्र
कवचं दृढः अस्ति,
दृढं कवचं
लोहमयं।
हा, लोहमयं, हा तत्र लोहेन, लोहेन इति अस्ति इति खलु तत्र, तत्र लोहः लौहमयं, तेन कृतं कवचं, लोहेन कृतं कवचं, लौहमयं दृढं कवचं। अतः तत्र विशेषणद्वयम् अस्ति। अग्रे
अन्यत् तीक्ष्णानि व्याघ्रणखानि, व्याघ्रणखानि अस्ति किञ्चित् व्याघ्रं हन्तुम् अस्ति, तस्य विशेषणम् अस्ति तीक्ष्णानि, तीक्ष्णानि व्याघ्रनखानि।
हा, व्याघ्रनखानि, हा तत्र प्रायशः एतदपि तत्र शस्त्रमेव अस्ति इति मन्ये, तत्र हस्ते हस्ते गृहीत्वा तत्र वैरिः यः अस्ति तस्य उपरि आक्रमणं कर्तुम् उपयोगं कुर्वन्ति।
व्याघ्रः नख,
नख नखानि, नख इत्युक्ते किं, कोऽपि वदति वा
नखं?
हा हा, तत्र व्याघ्रनखानि इत्युक्ते प्रायशः तत्र व्याघ्र इव, व्याघ्रस्य नखः यादृशम् अस्ति तादृशम् एतद् नखम् अपि अस्ति, अतः व्याघ्रनखम् अथवा बहुवचने व्याघ्रनखानि, तानि तीक्ष्णानि सन्ति।
रक्तं शिरस्त्राणं,
हा तत्र शिरस्त्राणं रक्तम् इति तत्र केवलं वर्णं, वर्णस्य विषयः इति मन्ये। हा,
तीक्ष्णं कृपाणं,
हा
कृपाणं अस्ति सोर्ड्,
अन्यत् पदं किमस्ति समानार्थ पर्यायपदं किमस्ति कृपाणम् इति पदस्य? छुरिका छुरिका इति स्वीकरोतु
लघु छुरिका
लघु छुरिका
खड्गम् अपि महोदय
खड्गम्
हा लघु खड्गम् अपि तदपि वक्तुं शक्नुमः इति
खड्गं बृहद् अस्ति छुरिका
लघु अस्ति समीचीनं अत्र
छुरिका इति लघ्वी अस्ति मेबि
तदपि समीचीनं भगिनि
विशेषणं तीक्ष्णम् अस्ति
समीचीनम् अतः तीक्ष्णं कृपाणमपि धृत्वा
अफजलेन मेलुतं प्रस्थितः
सः प्रस्थितः
शिवराजः
प्रस्थितः प्रस्थितः अपि विशेषणम् अस्ति तत्र तत्र प्रस्थितः इति पुनः तत्र पूर्वमपि दृष्टवन्तः खलु तत्र प्रस्थितः इति अस्ति तत्र गत्यर्थे अस्ति इति कृत्वा तत्र कर्तृरूपमपि अस्ति तत्र नो चेत् केवलं तत्र पठितम् इति तत्र कर्मणि कर्मरूपम् एव साधारणतया भवति किन्तु अत्र एषः प्रस्थितः इति गत्यर्थे अस्ति इति कृत्वा तत्र कर्तृरूपमपि अस्ति अस्तु अग्रे अग्रे ललिताभगिनी अग्रे पठति वा
महोदय पठामि आगतं शिवराजं दृष्ट्वा अफ्शलः प्रसन्नः अभवत् शिवराजं दृष्ट्वा अफ्शलः प्रसन्नः इत्युक्ते सन्तोषः
सन्तुष्टः
अभवत्
सन्तुष्टः अभवत् तत्र
अनुभवं
कीदृशं शिवराजं सः दृष्ट्वा प्रसन्नः अभवत् कीदृशं शिवराजं दृष्ट्वा अपजलकानः
आगतं शिवराजं दृष्ट्वा
आगतं शिवराजं तत्र प्रथमविभक्तिरूपं किम् अस्ति आगतः शिवराजः तत्र षष्ठी तत्र षष्ठीरूपं किं भवति आगतस्य शिवराजस्य दर्शनं कृत्वा अफ्जलः प्रसन्नः अभवत् इति समीचीनं अग्रे
सः स्वस्थानात् सहसा उत्थितः सः इत्युक्ते अफ्जलः स्वस्थानात् स्वस्य
तत्र आसन्दे आसन्दे सः आसीत् इति उपविष्टवान् उपविष्टवान् पूर्वम् आसीत् इदानीं किन्तु ततः सः
सहसा इत्युक्ते
सहसा तत्र वेगेन तत्र उत्साहेन तत्र सहसा उत्थितवान् तत्र रूपद्वयमस्ति तत्र उत्थित तत्र प्रस्थितः इति तत्र रूपद्वयम् अस्ति प्रस्थितः अपि अन्यत् रूपं किमस्ति प्रस्थितः शिवराजः प्रस्थितः किन्तु एष विशेष रूपमस्ति सः प्रस्थितः इति किन्तु साधारणरूप भूतकालरूपं किम् अस्ति सः सः गच्छति सः गतः न सः गच्छति सः इदानीं भूतकालरूपं सः गच्छति इति पदवाक्यस्य भूतकालरूपं न सः गच्छति इति पदवाक्यस्य भूतकालरूपं किम् अस्ति सः गतवान् किन्तु गतवान् सामान्यरूपं तद् सर्वत्र कर्तुं शक्नुमः गतवान् इति त्वान्तरूपं सर्वत्र तत्र त्वान्तरूपं न तवत् रूपं कर्तुं शक्नुमः, किन्तु अत्र किमस्ति, तत्र गतः अपि, तत्र नूतन गतवान् इति अर्थे, किन्तु सः गतः,
आगतः,
अतः अथवा प्रस्थितः इति एकः रूपः रूपम् अस्ति, एकं रूपम् अस्ति, अन्यत् रूपम् अस्ति, प्रस्थितवान्. तत्र उत्थितः इति उत्थितः अस्ति, अन्यत् रूपं किम्, उत्थितवान् सः, सः अपजलकानः स्वस्थानात् सहसा उत्थितवान् उत्थितवान्. अग्रे
एषः शिवराजः अबुधः अस्ति इति चिन्तयन् सः तं विविधानि मधुराणि वचनानि उक्तवान्.
शिवराजः
शिवराजः बुद्धिः नास्ति इति
चिन्तितवान्. कीदृशशिवराजः?
अबुधः शिवराजः.
कीदृशशिवराजः?
शिवराजः
एषः शिवराजः यः यः शिवराजः मम पार्श्वे
अस्ति,
यः शिवराजः अस्ति सः एषः शिवराजः अबुधः. अबुधः इत्युक्ते सः बुद्धिमान् नास्ति,
अबुधः अस्ति,
अबुधः अस्ति,
बुद्धिमान् नास्ति,
बुद्धिमान् सः बुद्धिमान् नास्ति इति
चिन्तयन्
प्रयोगम् इति चिन्तयन्
सः तं विविधानि मधुराणि मधुराणि वाक्यानि इत्युक्ते मधुरवाक्यं उक्तवान्.
मधुराणि वाक्यानि उक्तवान् तत्र कीदृशवचनानि?
शिवराजं शिवराजं
कीदृशवचनानि उक्तवान्?
मधुराणि
उक्तवान् अस्तु. विविधानि मधुराणि वचनानि,
मधुराणि वचनानि विशेष्यभावः,
विशेष्यं विशेष्यं वचनानि विशेष्यमस्ति, मधुराणि
विशेष्यं
विशेषणमस्ति, विविधानि विविधानि किम् अस्ति? विविधम् एकविधं मधुरम् इति न, केवलम् एकं मधुरं वाक्यमिति न, तत्र विविधानि मधुराणि वचनानि इति
बहूनि
बहूनि
भिन्नानि भिन्नानि मधुराणि
भिन्नानि भिन्नानि सत्यं सत्यं भगिनि सत्यं सत्यं अपि ललिता भगिनी तत्र तम् इति अस्ति तत्र
शिवराजं
किन्तु तत्र यद् वाक्ये अस्ति तत्र एषः शिवराजः अबुधः इति तद् तत्र स्थापयतु तस्य द्वितीयविभक्तिरूपं स्थापयतु तत्र तं तम् तत्र अस्तु तम् इति एव स्वीकरोतु तम् एषः इति स्थाने तं
शिवराजम्
अबुधं तम् अबुधम्
अबुधम् अस्ति इति चिन्तयन्
न भगिनि तत्र तत्र अस्तु अस्तु तत्र कार्यं किम् इत्युक्ते तत्र अफजलखानः वचनानि उक्तवान् कम् उक्तवान् तम् उक्तवान् शिवराजम् उक्तवान् कीदृशं शिवराजम् उक्तवान् अबुधं शिवराजम् अबुधं शिवराजं विविधानि मधुराणि
वचनानि
उक्तवान् इति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे अग्रे अस्तु अग्रे रघुपतिमहोदय अग्रे आरम्भं करोति वा महोदय
धीरः शिवराजः अपि तस्य चलयुक्तवचनानि अवगतवान् तस्य कपटवचनानि अवगतवान् शिवराजः धीरः शिवराजः
एषः शिवराजः धीरः
धीरः शिवराजः अस्ति अफजलः समक्षं स्थितं शिवराजम् आलङ्घितुं दीर्घौ हस्तौ प्रसारितवान् अफजलः प्रसारितवान् हस्तौ प्रसारितवान् आलङ्घितुं शिवराजं कीदृशं शिवराजं स्थितम् अग्रे स्थितं समक्षं स्थितं शिवराजम् आलङ्घितुं प्रसारितवान् हस्तौ प्रसारितवान् दीर्घौ हस्तौ
दीर्घौ हस्तौ हा तत्र प्रथमविभक्तिरूपं किमस्ति तत्र समक्षं स्थितं शिवराजं
शिवराजः अस्तु समक्षं स्थितं समक्षः स्थितः शिवराजः
अथवा प्रायशः तत्र समक्षः स्थितः
समक्षः शिवराजः इति अस्ति
भवति
समक्षे स्थितं शिवराजमिति भवितुम् अर्हति वा समक्षे इति सप्तमी विभक्ति तत्र सप्तमी विभक्ति भवति वा
प्रायशः किन्तु अत्र तु तत्र विशेषणम् इति एव स्वीकृतम्
विशेषणेन स्वीकृतम्
अतः तत्र तत्र एषः इति अर्थे तत्र समक्षः एषः समक्षः अस्ति इति कृत्वा तत्र समक्षः स्थितः शिवराजः इदानीं तत्र इति प्रथमविभक्ति इदानीं तत्र आलङ्घितुम् इति स्थाने तस्य आलङ्घनं कर्तुम् इति स्थापयामश्चेत् तत्र किं भवति अपजलः
अफजलः समक्षं स्थितं सोरि समक्षे समक्षस्य स्थितस्य शिवराजस्य आलिङ्गनं कर्तुम् इति आलिङ्गनमिति अत्र कृदन्तपदमस्ति अतः षष्ठी भक्ति भवति स्थितस्य शिवराजस्य समक्षस्य स्थितस्य शिवराजस्य आलिङ्गनं कर्तुं दीर्घौ हस्तौ प्रसारितवान्
समीचीनं महोदय अग्रे
अग्रे अफजलः स्थूलः उन्नतः च अफजलः स्थूलः उन्नतः इति तत्र विशेषणमस्ति राक्षसदेहस्य अफजलस्य पुरतः शिवराजः वामनः दृश्यते स्म शिवराजः वामनः दृश्यते स्म कस्य पुरतः अफजलस्य पुरतः अत्र कीदृश अफजलः राक्षसदेहः अफजलः तस्य पुरतः
तत्र तस्य राक्षसदेहः इत्युक्ते तत्र देहः इति नास्ति किन्तु तत्र तत्र यस्य देहः तत्र यस्य देहः राक्षस इव राक्षसस्य देह इव अस्ति
सः
राक्षसदेहः अफजलखानः तस्य पुरतः शिवराजः वामनः दृश्यते समीचीनं महोदय अग्रे
अग्रे घोरमुखः कानः सुदर्शनं शिवराजं झटिति आलिङ्गितवान् इदानीं कानः कः आलिङ्गितवान् कानः कीदृशकानः घोरमुखः कानः इदानीं कम् आलिङ्गितवान् शिवराजं कीदृशशिवराजः सुदर्शनः शिवराजः सुन्दरः शिवराजः सुदर्शनं शिवराजम् आलिङ्गितवान् झटिति
द्रष्टुं सुन्दरम् अतः तत्र
सुदर्शनं
शिवराजं झटिति आलिङ्गितवान् समीचीनं महोदय अग्रे
अग्रे शिवराजस्य शिरः अफजलस्य विशालम् उरः अस्पृशत् अस्पृश्यत् उरः अस्पृश्यत् कीदृश उरः इति विशालम् उरः
तत्र प्रायशः उरः इति तत्र लिङ्गं किम् इति जानीमः
नपुंसकलिङ्गे
उरस्
इति अस्ति
मनः
कस्य अफजलस्य
अस्पृश्यत् अपि जानीमः तत्र अस्पृशत् इति अस्ति चेत् तत्र कर्मपदं भवति द्वितीयविभक्तिरूपम् अस्ति इति कृत्वा तत्र पुरः अस्ति चेत् तत्र प्रायशः नपुंसकलिङ्गपदम् इति तत्र किम् अपृशत् अथवा कः अस्पृशत्
इदानीं शिवराजस्य शिरः अस्पृशत्
शिवराजस्य शिवराजः न किन्तु शिवराजस्य शिरः पुरः अस्पृशत् अग्रे महोदय
अग्रे दुष्टाशयः खानः सपदि शत्रुकर्षणं शिवराजं कण्ठे गृहीत्वा गुप्तरूपेण स्थापितया छुरिकया घातयितुं विफलं प्रयत्नं कृतवान् प्रयत्नं कृतवान् कः खानः कीदृशखानः दुष्टाशयः खानः इदानीं किं कर्तुं किं कर्तुम् इति अस्ति घातयितुं केन इति छुरिका इति अस्ति अतः छुरिकया कीदृशछुरिका कीदृशी छुरिका स्थापितया छुरिकया इति गुप्तरूपेण इति अस्ति इदानीं किं कृत्वा कण्ठे गृहीत्वा कं शिवराजं कीदृशं शिवराजं शत्रुकर्षणं शिवराजम् इदानीं कानः अस्ति तस्य विशेषणमस्ति दुष्टाशयः कानः सपदि झटिति सपदि इत्युक्ते इमिडियट्लि इति अस्ति विफलं प्रयत्नं कृतवान्
विफलं प्रयत्नं कृतवान् समीचीनं महोदय धन्यवादः अस्तु अग्रे शुभदा भगिनी अग्रे पठति वा
आं महोदय सपदि शत्रुकर्षणम् इत्युक्ते किं महोदय
सपदि झटिति झटिति
शत्रुकर्षणम् इति
शत्रुकर्षणं विशेषणम् अस्ति
अर्थः किम् अर्थः
कः
अर्थः कः
कर्षति कर्षति शत्रुं कर्षति शत्रुकर्षणः
शत्रोः उपरि शत्रोः उपरि कर्षणं करोति अथवा आक्रमणं करोति तत्र
अस्तु
अतः तत्र शत्रुकर्षणः शिवराजः इति रूपं
शिवराजस्य केवलं कवचं छिन्नं जातम्
छिन्नं जातम्
विद्युद्वेगः शिवराजः अपि स्वकीयेन दीर्घेण कृपाणेन खानस्य उदरं विदारितवान्
तत्र पूर्वं पठित्वा वदतु भगिनि
महोदय शिवराजस्य केवलं कवचं छिन्नं जातं शिवराजः एकः अपि कवचः अधारयत् अतः तत् सः कवचः खानस्य
तत्र प्रायशः कवचम् इति भगिनी नपुंसकलिङ्गे एव अस्ति इति मन्ये यतोहि तत्र जातम् इति अस्ति अभवत् इति तत्र किम् अस्ति अपि जातम् इति विशेषणम् अस्ति जातम् अतः नपुंसकलिङ्गे अस्ति तत्र किं जातं इत्युक्ते
छिन्नं जातं
किं जात किं छिन्नं जातं
कवचं छिन्नं जातं केवलं कवचं
केवलम् इत्युक्ते अन्यत् किमपि
नास्ति
न छिन्नम् अभवत् अन्यस्य छेदनं न अभवत् छेदनम् इत्युक्ते तत्र पियर्स् इति खलु तत्र केन छिन्नं जातम् एतत् कवचम्
अहं चिन्तितवती शिवराजः केवलम् एकं कवचम् अधारयत्
न सः एकमेव कवचं धरति किन्तु तत् कवचं कीदृशम् अस्ति इत्युक्ते तत्र लौहमयं दृढं कवचम् अस्ति अतः तत्र किं ते वक्तुम् इच्छन्ति तत्र तत्र देहस्य तत्र शिवराजस्य देहः छिन्नः न जातः केवलं कवचं छिन्नं जातम् तत्र छुरिकया तत्र गुप्तरूपेण या छुरिका स्थापिता आसीत् तया छुरिकया कानः प्रयत्नं कृतवान् किन्तु तत् प्रयत्नं विफलं यतोहि तत्र शिवराजस्य केवलं कवचं चिह्नं जातं न तु तस्य देहः
लोहमयं कवचमासीत्
अतः तत्र दृढम् आसीत् तत्र तस्य कार्यं कृतम् अकरोत् एतत् कवचं
संरक्षणस्य कार्यम् अकरोत्
रक्षणस्य कार्यम् एतत् कवचं कृतवत् अथवा अकरोत्
विद्युद्वेगः शिवराजः अपि स्वकीयेन दीर्घेण कृपाणेन खानस्य उदरं विदारितवान् कः विदारितवान् शिवराजः विदारितवान् कीदृशस्य शिवराजः विद्युद्वेगः यस्य वेगः विद्युत् इव अस्ति सः शिवराजः झटिति
तत्र सः यत् कृतवान् सः वेगेन कृतवान्
अपि स्वकीयेन दीर्घेण कृपाणेन खानस्य उदरं विदारितवान् उदरम् इति कर्मपदं खानस्य उदरं केन कृपाणेन कीदृशकृपाणेन दीर्घेण कृपाणेन अतः दीर्घेण कृपाणेन इति विशेषणविशेष्यं भवति अग्रे पठामि वा
हा अपि तत्र विद्युद्वेगः शिवराजः अपि स्वकीयेन तत्र किमर्थं तत्र स्वकीयेन दीर्घेण कृपाणेन तृतीया अस्ति इति किञ्चित् अपि वदतु भगिनि
कृपाणः इति कृपाणेन विदारितवान् अतः कीदृशकृपाणः स्वकीयः दीर्घः कृपाणः उभौ अपि विशेषणौ कृपाणः इति शब्दस्य अतः कृपाणेन इति तृतीया विभक्ति एकवचनमस्ति तत्कारणेन स्वकीयेन दीर्घेण अपि
समीचीनं भगिनि तत्र कृपाणः इति माध्यमम् अस्ति तेन सः उदरं विदारितवान् अपि तत्र स्वकीयेन इति अस्ति तत्र गतवर्गे अपि तत्र किञ्चित् तस्य विषये वयं चर्चितवन्तः तत्र स्वकीयः इत्युक्ते अर्थः कः
स्वीयः आत्मनः इति
स्वस्य किन्तु तत्र स्वस्य अस्ति चेत् तत्र किं भवति स्वस्य इति रूपं
षष्ठीविभक्ति
भवति स्वस्य तत्र स्वम् इति किन्तु स्वकीयः अपि स्वस्य तत्र किं भवति तत्र स्वस्याः अपि भवितुमर्हति स्वस्य भवितुमर्हति अत्र किं भवति इत्युक्ते तत्र कृपाणः अस्ति अतः तत्र महिला यदि वदति तत्र अथवा कोऽपि महिला तत्र अस्ति इति चिन्तयतु तत्र शिवराजस्य स्थाने इदानीम् अन्य तत्र किं कापि काचित् राणी अस्ति इति चिन्तयतु तत्र राणीलक्ष्मीबाई इति चिन्तयामः तत्र किं भवति तत्र अपि वदामः स्वकीयः दीर्घः कृपाणः इति किन्तु यदि इदानीं तत्र स्वकीयः इति स्थाने स्वस्य इति स्थापयितुम् इच्छामः तत्र किं भवति स्वस्याः इति भवति तत्र स्वकीयः किं भवति विशेषणं भवति यस्य तत्र कृपाणस्य अत्र किन्तु स्वस्य इति वदामश्चेत् तत्र स्वस्य इति किं भवति तत्र यः यस्य इति यस्य तत्र यः पुरुषः अथवा तत्र कर्तृर्थे इति तत्र तादृश तत्र किञ्चित् भेदः अस्ति तावदेव महिला अस्ति चेत् तत्र स्वस्याः दीर्घकृपाणः किन्तु इदानीं तत्र स्वकीयम् इति तस्य उपयोगः भवति चेत् स्वकीयः दीर्घः कृपाणः अथवा स्वकीया पत्रिका स्वकीया स्वकीयं काव्यम् इति यत् यः कोऽपि वदतु स्वकीयं काव्यमेव भवति किन्तु यदि महिला वदति चेत् तत्र स्वस्याः काव्यं स्वस्य काव्यम् इति तावदेव अस्तु भगिनि समीचीनं विदारितवान् इति अस्ति तत्र बहुवचने किं भवति
विदारितवन्तः
समीचीनं विद्युद्वेगः शिवराजः विदारितवान् अग्रे भगिनि
हतोऽहं वञ्चितोऽहम् इति उच्चैः क्रन्दन् मूर्तिभञ्जकः खानः छिन्नः वृक्षः इव भूमौ पतितः सः उच्चैः क्रन्दनम् आरभत्
तत्र शत्रन्तरूपम् इति जानीमः अतः तत्र
उच्चैः क्रन्दन् मूर्तिभञ्जकः खानः भूमौ पतितः कः पतितः खानः पतितः मूर्तिभञ्जकः खानः अतः मूर्तिभञ्जकः इति खानस्य विशेषणं कीदृशी कैः ऐ मीन्
सः किं कृतवान् सः अस्तु
उच्चैः क्रन्दन्
उच्चैः क्रन्दन्
हतोऽहं वञ्चितोऽहम् इति उच्चैः क्रन्दनम् आरभत् अपि च सः छिन्नः वृक्षः इव भूमौ पतितः वृक्षः यादृशः वृक्षः छिन्नः भवति चेत्
वृक्षस्य छेदनं यदि भवति चेत् तत्र वृक्षः पतति भूमौ पतति न तादृशः एषः अपि पतितः पतितः इति स्थाने अन्यत् रूपं किम् अस्ति
पतितवान्
पतितवान् कानः पतितवान् छिन्नः वृक्षः इव भूमौ पतितवान् कानः छिन्नः वृक्षः इव भूमौ पतितः तत्र
पतितः इति अकर्मक्रियापदः क्रियापदं महोदय
पतति पतति इति किं पतति पतति इति सत्यम् अतः भूमौ पतितः
भावे प्रयोगः भवति अत्र
न न तत्र भावे न एतत् कर्म कर्तर्ते अस्ति कर्तर्ते अस्ति तत्र अतः अतः एव तत्र प्रस्थितः इति तत् सर्वं गत्यार्थे अस्ति इति कृत्वा तत्र कर्तृरूपमेव अस्ति अस्तु समीचीनं तत्र इदानीं तत्र क्रन्दन् तत्र मूर्तिभञ्जकः मूर्तिभञ्जकः इत्युक्ते यः मूर्तेः भञ्जनं करोति सः मूर्तिभञ्जकः मूर्तेः भञ्जनं कृतवान् इति मूर्तिभञ्जकः अपि क्रन्दन् मूर्तिभञ्जकः कानः छिन्नः वृक्षः इव भूमौ पतितः इदानीं तत्र कानः इति स्थात् इति पदस्य द्वितीयविभक्तिरूपं भवति चेत् तत्र किं भवति
मूर्तिभञ्जकं खानम् इति भवति
हा मूर्तिभञ्जकं खानम् अपि क्रन्दन् इति पठन् पठन्तौ पठन्तः क्रन्दन्तं मूर्तिभञ्जकं कानं शिवराजः दृष्टवान् इति अस्तु सूर्यकुमारी भगिनी तदनन्तरं गीताञ्जलि भगिनी हा सूर्यकुमारी भगिनी कः प्रश्नः किं भगिनि भञ्जकः तस्य नाशं करोति इति तत्र देवालये मूर्तयः सन्ति खलु हा तस्य नाशम् अभवत् खलु तेषां नाशम् अभवत् खलु तत्र देवालये तत्र आक्रमणं देवालयस्य आक्रमणं कृत्वा तत्र ये मूर्तयः आसन् तेषां नाशम् अभवत् खलु अतः तत्र एषः कानः मूर्तेः भञ्जनं कृतवान् मूर्तेः भञ्जनं कृतवान् अतः सः मूर्तिभञ्जकः मूर्तिभञ्जकः गीताञ्जलि भगिनि
तत्र महोदय द्वितीयविभक्ति अस्ति चेत् खानं छिन्नं पतितम् अपि समीचीनं न महोदय पतितः खानः पतितः इत्युक्ते विपतितः विशेषण तत्र न महोदय
हा तत्र सर्वं स्थूलक्षरैः अस्ति सन्ति किन्तु तत्र किम् अस्ति तत्र पतितः कानः पतितः तत्र केवलं कानः पतितः इति विशेषणम् अस्ति पतितः अस्ति विशेषणं कस्य पदस्य
खानस्य
कानः इति पदस्य किन्तु तत्र वृक्षः इति विशेषणमस्ति वा?
खारः छिन्नः
छिन्नः वृक्षः
इव इति अस्ति. अतः किं अस्ति भगिनि तत्र तत्र अनेकानि पदानि स्थूलक्षरैः दत्तानि इति कृत्वा तत्र क्लेशः भवति. तत्र जानीमः तत्र यत् स्थूलक्षरैः अस्ति तद् विशेषणं वा विशेष्यं भवेत् इति. किन्तु तत्र खानः इति यत् पदमस्ति तस्य विशेषणानि कानि इत्युक्ते पतितः इति एकमस्ति, मूर्तिभञ्जकः इति अन्यत् अस्ति, अपि क्रन्दन् इति तृतीयं खलु.
क्रन्दन् अपि विशेषण अस्ति.
हा सत्यं, पठन् पठन् इति नामपदमस्ति खलु भगिनि, शत्रन्तरूपं. हा तत्र
क्रन्दन् खानः क्रन्दन् पतितः अपि.
हा सत्यं भगिनि, हा क्रन्दन् क्रन्दन् मूर्तिभञ्जकः कानः पतितः इति तत्र सर्वत्र विशेषणमस्ति. किन्तु वृक्षः इति अन्यत् पदमस्ति तस्य विशेषणं तद् विशेषमस्ति तस्य विशेषणमस्ति छिन्नः इति. अतः तत्र छिन्नः वृक्षः इव भूमौ पतितः. अतः तत्र
शत्रन्तरूपम् अपि विशेषणम् अस्ति अत्र.
हा सत्यं सत्यं सत्यं, हा पतितः अपि विशेषणं तत्र पतितवान् इति जानीमः तत्तु विशेषणमेव खलु नामपदमेव. अतः पतितः पतितवान् समानमेव. किन्तु पतितवान् तत्र किं पतितवत् हलन्तरूपम् अस्ति, एषः एतत्तु पतितः इति अकारान्तदेवपदमिव अस्ति, अतः तावदेव. किन्तु नामपदं विशेषणमेव.
महोदय अपि च शत्रुकर्षणम् एकवारं पुनः विवरणतु.
तत् सः शत्रोः कर्षणं कृतवान् इति, सः शत्रोः कर्षणं करोति आक्रमणं. तत्र शत्रोः कर्षणम् इत्युक्ते केवलम् आक्रमणम् इति न, तत्र शत्रोः किं
दमनं
दमनम् अपि तस्य कर्ष इत्युक्ते किं कर्षणम् इत्युक्ते किं न न तत्र उदाहरणं वदतु कर्षणम् इति.
यथा भूमौ कर्षणं भवति
हा तादृशः तादृशं एषः शत्रोः करोति. शत्रोः देहस्य कर्षणं करोति अतः तत्र शत्रोः हन्तारः इति प्रायः हन्ता शत्रोः हन्ता शत्रुहन्ता इति किमपि. अतः तत्र शत्रवः शिवराजं दृष्ट्वा भीतिम् अनुभवन्ति इति. अतः तत्र शत्रुकर्षणः शिवराजः द्वितीयं वक्तुं शत्रुकर्षणं शिवराजम्. अग्रे शुद्धभगिनी
भागद्वयं त्रयम् अपि कर्षणम् इति.
हा हा प्रायशः सत्यं भगिनि, हा प्रायशः तत्र हा सत्यं भगिनि, हा तत्र खण्डं करोति खण्डशः शत्रवः भवन्ति इति कृत्वा तत्र शत्रुकर्षणं शत्रुकर्षणः शिवराजः. अस्तु भगिनि, हा अग्रे शुभदा भगिनि.
भृशं पीडितः गतप्रभः सः क्षणार्धेन मृतः. भृशम् इति बहु पीडितः गतप्रभः इति चेतनारहितः सः इत्युक्ते खानः क्षणार्धेन मृतः. कः मृतः? सः इत्युक्ते खानः मृतः. कीदृश खानः? भृशं पीडितः. गतप्रभः च खानः क्षणार्धेन तत्क्षणे मृतः.
क्षणेन एव अथवा क्षणार्धेन तत्र झटिति. हा झटिति, तत्र केवलम् एकमेव अपि क्षणं सः तत्र नासीत्. अग्रिमे क्षणे एव अथवा तस्य पूर्वमेव सः मृतः. मृतः क्षणार्धेन, अर्धक्षणे, अर्धक्षणे एव सः मृतः. तत्र क्षणार्धात् पूर्वमेव सः मृतः.
मृतः इति शब्द
अपि पुनः भगिनि तत्र प्रस्थितः, पतितः, उत्थितः सर्वं तत्र मृतः, तत् सर्वं गत्यार्थे अस्ति इति कृत्वा तत्र कर्तरिरूपम् अस्ति.
मृतवान् इति वक्तुं शक्यते वा?
हा मृतवान्, समीचीनं, सत्यं सत्यं भगिनि. तत्र हा तत्र तवतु इति तत्र गतवान्, खादितवान् तत्सर्वं सर्वत्र स्थापितुं कर्तुं शक्नुमः. किन्तु अत्र एषः रूपः साधारणतया तत्र कर्मणि अर्थे कर्मणि रूपम् एव, तत्र कर्मपदस्य एव एतद् रूपं भवति. तत्र पुस्तकं पठितं, वृक्षः दृष्टः इति. किन्तु अत्र दृष्टः, किन्तु अत्र किमस्ति, तत्र मृतः इति तत्र कर्तृ, एषः एव मृतः इति. अतः तत्र यस्य प्रभा इति, प्रभा इति प्रायशः स्त्रीलिङ्गे अस्ति इति मन्ये. तत्र यस्य प्रभा चेतना, हा यस्य चेतना, तत्र जीवचेतना, गतः, गतं पुनः तत्र गतः, मृतः, गतः इति. तत्र यस्य चेतना गता सः गतप्रभः. यस्य प्रभा, यस्य प्रभा गता अस्ति सः गतप्रभः.
प्रभा इति स्त्रीलिङ्गे अस्ति महोदय, परन्तु गतप्रभः पुल्लिङ्गे.
तत्र बहु
विशेषणम् अस्ति,
अन्यपदार्थः अस्ति, अन्यपदार्थस्य लिङ्गम् अनुसरति. गतप्रभा इति तत्र
सः इत्यस्य विशेषणं भवति.
सत्यं सत्यं भगिनि. अतः 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 यदि तत्र महिला आसीत् चेत् तत्र किं भवति? नपुंसकलिङ्गे किं भवति?
गतप्रभं भवति.
हा गतप्रभं मित्रम् इति. हा
क्रियाविशेषणकर्तृ भूतकालं
किं भगिनि?
कथाप्रत्यय क्रिया विशेषण कर्तृपद भूतकालम्.
हा अत्र 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 कर्तृपदं बोधयति अत्र
भूतकालं.
साधारणतया तत्र कर्मपदमेव बोधयति. अत्र गत्यार्थे अस्ति इति कृत्वा तत्र केचन धातवः सन्ति, तेषाम् एषः रूपमपि भवति. कर्तृपदं सूचयति, न तु कर्मपदं यत् साधारणतया सूचयति.
गत्यार्थक इत्युक्ते
गत् केवलं घं धातुः न, तत्र केचन धातवः सन्ति भगिनि. तत्र प्रस्थितः, तत्र किम् अन्यत् किं
व्रजते इति
तत्र प्रस्थितः, उत्थितः, अन्यत् अत्र एव वयं दृष्टवन्तः खलु. तत्र अन्यत् किम् आसीत् तत्र अस्मिन्नेव अध्याये? हा पतितः, पतितः, इदानीं मृतः, तत्सर्वं, हा तत्सर्वं तत्र गत्यार्थे. हा
जातः,
जातः, जातः, जातः अपि. हा जातः, समीचीनं.
वदितः अपि
किं भगिनि?
वदितः
न स्मरामि भगिनि, हा न स्मरामि. तत्र के के सन्ति इति न स्मरामि, किन्तु गत्यार्थे भवेत् इति तत् स्मरामि.
परन्तु गच्छति इति अर्थेन न,
तत्र गत्यार्थे इत्युक्ते केवलं गच्छति इति न, तत्र कापि गमनक्रिया, तत्र मृतः इति तत्र किमपि अभवत् तत्रापि गमनक्रिया अस्ति खलु तादृशः. अतः तत्र घत्यार्थे इति वदामः. अस्तु अग्रे अन्तिमं.
चिरप्रवृद्धं पापं शान्तम् अभवत्.
चिरप्रवृद्धम् इत्युक्ते
चिरप्रवृचिर इति
बहुकालात् प्रवृद्धं यत् आसीत्, बहुकालात् यत् आसीत् पापं यत् आसीत् तत् पापम् इदानीं शान्तं जातम्, शान्तम् अभवत्. अतः तत्र सर्वम् इदानीं तत्र मेलनस्य तत्र मेलने किम् अभवत् इति इदानीं जानीमः, तत्र कानः मृतः इति. अस्तु अस्तु, इदानीं तत्र किञ्चित् किञ्चिदेव तत्र परिशीलयामः. तत्र अन्तिमपरिच्छेदः तत्र अनेकानि विशेषणानि सन्ति इति कृत्वा तत्र किञ्चित् परिशीलनम् आवश्यकमिति मन्ये. अस्तु तर्हि तत्र मम मीनाक्षी भगिनी नमस्कार. हा वदतु भगिनी, गीताञ्जलि भगिनी वदतु.
प्रश्न महोदय, स्वकीय इति शब्दस्य स्वस्य अस्ति एकं पदं, तत्तु अव्ययपदम् अस्ति.
न न, स्वस्य इति अव्ययं नास्ति भगिनि.
ओ, स्वस्य कीदृश षष्टि विभक्ति?
स्वं, स्वम् इति पदस्य षष्टि.
ओ, स्वम् इति पदस्य
स्वस्मिन् स्वस्मिन् स्वस्य.
ओ, किन्तु स्वकी तत्र
स्वकीयः इति स्वकीयः इति अकारान्तपदं, स्वकीयः कृपाणः.
अस्ति आदेशः भवति मदीयः, स्वदीयः,
अस्मदीयः,
अस्मदीयः,
भारतीयः, भारतीयः.
किं भगिनि पुनः पुनः एकवारं?
सम्बन्ध सम्बन्धार्थक तद्वितान्तः, रिलेशन्शिप्.
इति
भवति.
पुनः वदतु महोदय.
छ इति तद्विधप्रत्यय, तत्र ई आदेशः भवति.
अस्ति
छ इति प्रत्ययः, मूलरूपं छ इति अस्ति, अनन्तरं तत्र ई आदेशः भवति.
छ क भवति वा?
न, तत्र कुत्वं ककारस्य आगमः भवति, तद्धितप्रक्रियायाम् अस्ति. सम्यक् न
जानामि, बहु किमपि अस्ति किन्तु इदानीं मास्तु. एतावत्
त्रिंशत् उपत्रिंशत् तद्धितप्रत्ययाः सन्ति अत्र, बहु कार्याणि सन्ति.
किन्तु स्वकीयेन तु षष्टि, सोरि, तृतीय
स्वकीयः, स्वकीयः इति अकारान्तपदम्, अतः स्वकीयेन दीर्घेण कृपाणेन इति तत्र तृतीयविभक्तिरूपम्, अकारान्तपदं, देवपदम् इव.
स्वकीयः इति पुंलिङ्गं,
पुल्लिङ्गं, यतोहि कृपाणः इति पुल्लिङ्गं.
स्वकीया स्त्रीलिङ्गे,
स्त्रीलिङ्गे नपुंसकलिङ्गे स्वकीयं,
स्वकीयम्. अस्तु महोदय,
कृपाणः अतः स्वकीयः.
धन्यवादः.
तत्रापि तत्र स्वम् इति तत्र स्वस्य, स्वस्मिन् अपि तत्र तृतीयविभक्ति न स्मरामि, तत्र कोऽपि स्मरति वा स्वम् इति पदस्य रूपाणि?
स्वेन इति भवति वा? स्वेन,
हा प्रायश, प्रायश महोदय, हा स्वेन, प्रायश स्वेन एव अस्ति इति मन्ये.
स्वेन एव अस्ति,
स्वेन एव,
स्वस्मै, स्वस्मात्, स्वस्य, स्वस्मिन्,
स्वस्मिन्. हा अस्तु अग्रे, उमा मीनाक्षी भगिनी श्रूयते वा?
श्रूयते वा?
हा श्रूयते भगिनी. हा अतः तत्र किञ्चित् पुनः एकवारं तत्र अन्तिमपरिच्छेदः रात्रिः अतीता इति तत्र केवलम् इदानीं विशेषणं किम् अपि विशेषण विशेष्यं विशेषणं किम् इति तत्र किञ्चित् उक्त्वा अग्रे
किं कर्तव्यं
तत्र रात्रिः अतीता इति तत्र आरभ्य तत्र विशेषणं किं विशेष्यं किम् इति वक्तव्यम्
ओके रात्रिः अतीता रात्रि विशेष्यम् अतीता विशेषणम् एको अस्ति वा
एको अत्र नास्ति भगिनि इदानीं समीचीनमेव अस्ति
ओके सूर्योदयः जातः तत्र सूर्योदयः विशेषणं न विशेष्यं जातः विशेषणं भवानी भक्तः शिवराजः ओके शिवराजः विशेष्य भवानी भक्तः तस्य विशेषणम्
विशेषणं तत्र भवानी इति अस्ति तत्र भवानी भक्तः इति तत्र कस्याः भक्तः
भवान्याः भक्तः
भवान्याः भक्तः शिवराजः सः भवानी भक्तः शिवराजः अग्रे
अनन्तरं लोहमयं दृढं कवचं
लोहमयं दृढं कवचं तत्र लोहमयं दृढं कवचं वदतु भगिनि
कवचं विशेष्य
विशेष्यं
तदनन्तरं लोहमयं दृढं द्वयमपि विशेषणं
विशेषणम् अस्तु समीचीनम् इदानीं तत्र तस्य तृतीयविभक्तिरूपं किं भवति
लोहमयेन दृढेन कवचेन
समीचीनं भगिनि षष्टि एकवचनं
लोहमयस्य दृढस्य कवचस्य
समीचीनं अग्रे
तीक्ष्णानि किं व्याघ्रनखानि
कीदृशानि व्याघ्रनखानि
तीक्ष्णानि
तीक्ष्णानि व्याघ्रनखानि अस्तु अग्रे
रक्तं शिरस्त्राणं शिरस्त्राणं विशेष्य रक्तं विशेषणं
तत्र रक्तवर्णं तावदेव तत्र रक्तवर्णं शिरस्त्राणं
अनन्तरं तीक्ष्णं कृपाणं कृपाणं विशेष्य तीक्ष्णं विशेषणं
विशेषणम् अस्तु एतत् सर्वं धृत्वा अपचलेन मेलितुं प्रस्थितः कः प्रस्थितः कः
प्रस्थितः शिवराजः प्रस्थितः
भवानी भक्तः शिवराजः एतत् सर्वं धृत्वा प्रस्थितः अस्तु अग्रे
अग्रे आगतं शिवराजम् ओके अत्र तु द्वितीयविभक्ति अस्ति शिवराजः विशेष्य आगतं विशेषणं
तत्र तृतीयविभक्तिरूपं किं भवति
आगतेन शिवराजेन
आगतेन शिवराजेन समीचीनं अग्रे तत्र
प्रसन्नः
प्रसन्नः अभवत्
अफ्जलः विशेष्य सन्नः विशेषणं
समीचीनं भगिनि अग्रिमवाक्ये तत्र सः
सः उत्थितः अत्र विशेषणविशेष्यभावः तु अस्ति
सः उत्थितवान्
सः उत्थितः
सः उत्थितवान् तावदेव तत्र सः खानः उत्थितवान्
उत्थितः खानः एवं वक्तुं शक्नुमः कदाचित्
सत्यं सत्यं भगिनि उत्थितः कानः सः तत्र सहसा उत्थितः सा तावदेव अस्तु अग्रे
अग्रे एषः शिवराजः अबुधः शिवराजः विशेष्य एषः विशेषणम् अबुधः अपि विशेषणम्
अबुधः अपि विशेषणं समीचीनं भगिनि अस्तु समीचीनम् अस्तु तत्र
विविधानि मधुराणि वचनानि वचनानि विशेष्य विविधानि मधुराणि विशेषणानि विशेषणे
विशेषणे समीचीनं भगिनि, धन्यवादः. अस्तु अस्तु, इदानीं तत्र एतावत् तत्र विशेषणं विशेषम् इति, इदानीं तत्र अग्रे तत्र अग्रे अपि किञ्चित् अस्ति, किन्तु तत्र अन्यत् किमपि वक्तव्यमस्ति वा एतेषु वाक्येषु? तत्र मेलितुम् इति तुमुन् इति जानीमः, अपजलेन मेलितुम् इति.
एकः संशयः अस्ति, रक्तं रक्तशिरस्त्राणं रक्तं शिरा श्रवणात् त्रायते इति अस्ति वा?
रेड् टर्बन् इति तत्र तादृशार्थे तावदेव. तत्र शिरं शिरस्य किं शिरं शिरं त्रायते इति
शिरस्य कवचम्
सत्यं सत्यं हा शिरस्त्राणं
द्विचक्र
इदानीमपि किन्तु तत्र सर्वदा रक्तवर्णम् इति न भवति.
कस्मात् स्रवति रक्तं?
न तत्र रक्तस्य रक्तम् इति तत्र तादृश अर्थः अत्र नास्ति. केवलं रक्तवर्णं केवलं वर्णं वर्णम् अस्ति तत्र.
महोदय, तस्य मारणं तु अनन्तरमेव शिवराजः करोति.
सत्यं भगिनि, किन्तु एतत्तु शिवराजस्य शिरस्त्राणम् अस्ति, अतः तत्र रक्तं किमपि नास्ति तत्र, खलु? अतः केवलं केवलं वर्णम् अस्ति तत्र, तस्य रक्तवर्णं प्रायशः वर्णः इति अस्ति खलु तत्र, रक्तवर्णः इति पुल्लिङ्गे अस्ति इति मन्ये.
नाटकाय
न नाटकमपि नास्ति भगिनि, तत्र केवलं तत्र तस्य शिरस्त्राणं रक्तवर्णम् अस्ति तावदेव. तत्र अन्यत् किमपि महत्वं नास्ति इति मन्ये, केवलं तत्र विशेषणं स्थापितुम् इष्टवन्तः, अतः रक्तम् इति. तत्र कृपाणम् अस्ति, तस्य विशेषणम् अस्ति, इदानीं शिरस्त्राणं, तत्रापि किमपि विशेषणं भवतु इति कृत्वा तत्र रक्तम् इति स्थापितम् अस्ति इति मन्ये भगिनि, तावदेव. किं भगिनि?
शत्रुः मरणं सूचयति.
शत्रोः मरणं सूचयति. अस्तु,
तत्र कपटः खानः सः किमपि स्वस्य सेना तत्र न
सेनापि अस्ति, सेनापि शिबिरे अस्ति, तत्र स्वसैन्यं सः आगतः अस्ति, किन्तु सैन्यं तत्र शिबिरे अस्ति, किन्तु केवलं तत्र
खानस्य सेना अस्ति, अपि च अपि शिवराज अपि सेना सह.
सत्यं सत्यं, शिवराजः अपि ससैन्यम् आगतवान्, खानः अपि ससैन्यम् आगतवान्, किन्तु तत्र मेलनार्थं तत्र खानः सः किं तत्र युद्धं कृत्वा अहं शिवराजस्य हतं करोमि इति तत्र तादृशा चिन्ता नासीत् खलु तस्य, खलु? तत्र पूर्वमेव वयं दृष्टवन्तः तत्र सः किम् अस्ति तत्र शिवराजस्य सामर्थ्यं वर्धमानम् आसीत्, अपि तत्र प्रायशः पर्वतमूषिकः अस्ति, अतः तत्र साक्षात् युद्धं कृत्वा तत्र जयं प्राप्तुं तत्र प्राप्नुमः इति तत्र अफ्जल् खानस्य विश्वासः नासीत्, अतः किमपि कपटं कृत्वा एव तत्र जयं प्राप्नोमि इति सः चिन्तितवान्, अतः तत्र सः उपायमपि कृतवान् खलु, तत्र सन्धिं कृत्वा सन्धिरूपेण
कपटेन एव तत्र
अतः तत्र सन्धिः कुर्मः इति.
किन्तु तस्य कपटः किञ्चित् दोष इत्युक्ते यदि मम मनसि कपट अस्ति किमर्थं मम सेना प्रथमा न.
सत्यं भगिनि, हा हा सत्यं हा. अतः तत्र सः अपि कपटेन सर्वं कृतवान् अपि. अत्र शिवराजः अपि सः अपि तत्र किम् अबुधः नास्ति,
सः अपि
शिवराजः अपि सिद्धः अस्ति. अतः तत्र द्वयोः अपि तत्र किं द्वयोः तत्र शस्त्राणि शस्त्रं सर्वम् अस्ति. अतः तत्र केवलं तत्र नाटकम् अस्ति, अस्तु सन्धिं कुर्मः इति. किन्तु साक्षात् सन्धि इति कुर्मः इति तयोः मनसि नासीत् खलु. तत्र एतस्य अपि तीक्ष्णं कृपाणम् अस्ति, खानस्य अपि तत्र कृपाणं. तत्र
शिवराज तु एकं कवचं किं कवचं
धृत्वा सः आगतवान्
कवचस्य उपरि एकं कवचम् अपि आवरणे अस्ति महोदय.
सत्यं भगिनि, कवचस्य उपरि प्रायशः तत्र वस्त्रम् अस्ति इति मन्ये भगिनि. अतः तत्र कवचस्य कवचं न दृश्यते.
किमर्थं खान न अपि कवचं?
सः चिन्तयति एषः वामनः अस्ति, तस्य तं दृष्ट्वा किमर्थं भीतिः इति. अहङ्कारः इति. सत्यं भगिनि, तादृशचिन्तनम् इति मन्ये भगिनि. अपि एषः वामनः अबुधः इति तादृशचिन्तनम् अस्ति खलु तस्य.
उत्तमं महोदय.
अतः तत्र अत्र कोऽपि तत्र किं रक्षणस्य आवश्यकता तत्र नास्ति. अतः तत् अहं यत् चिन्तितवान् तत् साधितुं शक्नोमि अत्र मम पार्श्वे. तत्र गुप्तरूपेण या छुरिका स्थापिता अस्ति तया अहं कार्यं कर्तुं शक्नोमि. एषः अबुधः, अतः तत्र तं मारयितुं सुलभतया कर्तुं शक्यते इति.
अस्तु महोदय, अहङ्कारेण अबुधः इति चिन्तयति.
सः
अग्नितुल्यः पराक्रमी इति चिन्तितम्
अपि. सत्यं यत् कोऽपि नाथवर्यः उक्तवान् तत् सत्यमेव इति सः चिन्तितवान् खलु. अतः तत्र
अग्नि किम् अग्नितुल्य किं
तत्र वदतु भगिनि.
अग्नितुल्यः पराक्रमः इति
तस्य पराक्रमः अग्नितुल्यः. खानस्य पराक्रमः अग्नितुल्यः. अग्नितुल्यः इत्युक्ते तत्र तादृशः अन्य कोऽपि नास्ति खलु.
इत्युक्ते किमपि मार्गः नास्ति तत्र तु.
न अतः तत्र खानः इव कोऽपि तत्र तादृशः धीरपुरुषः अन्य कोऽपि नास्ति. मम महाराजः अपि तादृशः नास्ति. सः भीतिः सः भीतः अस्ति भवतः
एव तत्र सर्वं किं प्रमुखमस्ति. प्रमुखः अस्ति खानस्य.
सत्यं भगिनि, सत्यं. तस्य मनसि कीदृशं चिन्तनम् आसीत् इति तत् प्रमुखम् अस्ति. अतः तत्र एषः शिवराजः किं कृतवान् दूतरूपेण तत्र मधुराणि वचनानि अपि एषः अपि कृतवान् खलु दूतः. अतः तत्र गोपीनाथवर्यः तत्र भवतः पराक्रमः अग्नितुल्यः, दयालुता अस्ति भवती, तत्र परमा दयालुता अस्ति इति सर्वम् उक्तवान्. अतः किन्तु तत्र किं कानः तत्र वञ्चितः खलु तत्र
अद्यतन अपि
सा एव स्थितिः सत्यं
तदेव भवति
सत्यं
महोदय एकः प्रश्नः महोदय तृतीयपरिच्छेदे अन्तिमवाक्ये तेन अग्रिमं कार्यं सुकरं भवेत् इति खानः चिन्तितवान् एतस्मिन् वाक्ये अग्रिमं कार्यम् अग्रिमम् इति शब्दस्य व्याकरणं किं कीदृशमस्ति महोदय अग्रिमं कार्यं सूचना अस्ति चेत् अग्रिमा सूचना भवति वा
सत्यं सत्यं
ओके
विशेषणं विशेषणम् इति अस्ति भगिनि अतः तत्र अग्रिमः अग्रिमः पुरुषः अग्रिमं कार्यम् अग्रिमा महिला
अस्तु अस्तु अग्रे अपि वक्तुं शक्यते वा
अग्रे
मङ्गलवासरे
तत्र अग्रिमे इति एव अग्रे इत्युक्ते किञ्चित् अग्रे इति किन्तु अग्रिमे इत्युक्ते तत्र एषः अस्ति तदनन्तरं यद्भवति तद् अग्रिमः अस्ति किन्तु अग्रे इत्युक्ते केवलं तत्र अग्रे एव तत्र अतः तत्र एकः अस्ति तस्य अनन्तरम् अग्रिमः अस्ति अथवा एका अस्ति तस्याः अनन्तरम् अग्रिमा अस्ति
तत्तु अव्ययं नास्ति
अव्ययं नास्ति हा हा अव्ययं नास्ति
अग्रिमः त्रिषु लिङ्गेषु भवति
त्रिषु लिङ्गेषु अग्रिमः अग्रिमा एव खलु महोदय स्त्रीलिङ्गे
आमाम् अग्रिमा अग्रिमम् इति
अग्रिमा आकारान्तस्त्रीलिङ्गं लताशब्दः
धन्यवादः महोदय धन्यवादः
अस्तु तर्हि
ईमेल् मध्ये समयः अशुद्धम् अस्ति
सत्यं भगिनि अहमपि दृष्टवान् क्षम्यतां तत्र अष्टवादनतः इति अस्ति सत्यं भगिनि तत्र प्रेषितवान् तदनन्तरं दृष्टवान् ओ अस्तु तत्र दोषः अस्ति इति आङ्ग्लभाषे समीचीनमस्ति किन्तु संस्कृते सत्यं भगिनि चिन्ता मास्तु भगिनि सत्यमेव अहं तत्र एतत् सर्वदा भवति खलु प्रेषयामः तदनन्तरम् अस्तु अत्र दोषः अस्ति तावत् तत्र न दृश्यते दोषः धन्यवादः भगिनि अतः तत्र अग्रिमवारे अग्रिमसप्ताहे यथा तत्र स्मरणपत्रम् आगच्छति पुनः परिशीलयतु दोषः प्रायशः न स्यात् अस्तु
अन्यविषयः अस्ति महोदय गतवर्गे तेजस् शब्दविषये
वदतु भगिनि शुभदा भगिनी अपि किमपि
भिन्नभिन्न भवति तेज शब्दः तेजस् नपुंसकलिङ्ग अस्ति सकारान्तः
तेजस् नपुंसकलिङ्ग सकारान्तपदम् अस्ति किन्तु अत्र किं भवति समासः इति भवति
वेधस् इति सकारान्तपुल्लिङ्गशब्दः अस्ति तस्य षष्ठी बहुवचनं भवति वेधसाम्
अत्रापि तत्र उग्रतेजसाम्
दलपतिनाम्
दलपतिनाम् उग्रतेजस् इति सकारान्त पुल्लिङ्गपदं तत्र प्रथमविभक्ति अस्ति
उग्रतेजाः
इति प्रायशः खलु
वेधस् इति शब्दस्य वेधाः वेधसौ वेधसः वेधसं वेधसौ वेधसः इति भवति
अतः एतत् पदं किं भवति एतस्य पदस्य प्रथमविभक्ति उग्रतेजाः वेदः भवति अतः एतद् भवति उग्रतेजाः उग्रतेजसः समीचीनं भगिनि सूर्यकुमारी भगिनी समीचीनं वा?
आं महोदय, समीचीनं
समीचीनम्. अतः समासम् इति अस्ति. अतः तत्र यस्य तेजः उग्रः सः उग्रतेजसः अथवा उग्रतेजाः तेजाः सः उग्रतेजाः इति. अस्तु, समीचीनम्. अस्तु, इदानीं तत्र उमामीनाक्षीभगिनी अन्ते तत्र भवती वदति वा तत्र शान्तिमन्त्रम्?
आं वदामि. पूर्णमदन
सत्यम्.
ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः.
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 सप्ताहे वर्गः आसीत् वा? न
नासीत् भगिनी, क्षम्यतां. तत्र अहं तत्र दीपावली अस्ति इति कृत्वा तत्र प्रायशः न कोऽपि आगच्छति इति चिन्तितवान. क्षम्यतां मम. सत्यं सत्यं भगिनि. तत्र नासीत् तत्र. यदि स्मारणपत्रं नागच्छति चिन्तयतु, तत्र वर्गः नास्ति इति. वर्गः अस्ति चेत् निश्चयेन स्मारणपत्रं प्रेषयामि. अस्तु, धन्यवादः भगिनि. धन्यवादः. सर्वेभ्यो नमः. धन्यवादः. नमस्कारः. अग्रिमे वर्गे मिलामः. नमस्कारः. धन्यवादः.